इयं आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधि तिवारी। आदौ मुख्याः वार्ताः। अद्य लोकसभा निर्वाचनस्य शेषेभ्यः चरणेभ्यः प्रख्यात राजनीतिक दलैः नैर्वाचनिक प्रचाराभियानं विधीयते। राजस्थानस्य नीमका थाना इत्यस्मिन् जनपदे एकस्मिन् आकरे गतरात्रौ अवरुद्धाः हिन्दुस्तान कॉपर लिमिटेड इत्याख्यस्य सर्वे 15 अधिकारिणः अद्य निष्कासिताः। विदेशमंत्री एस जयशंकरः प्रोदीरितवान् यत् चाबहार जलपोतस्थानकात् सर्वाणि क्षेत्राणि लाभान्वितानि भविष्यन्ति, एतदभिलक्ष्य मनसि संकीर्ण मानसिकता न भवितव्या। अपि च आईपीएल इत्येतस्यां क्रिकेट प्रतिस्पर्धायां राजस्थान रॉयल्स पंजाब किंग्स दलयोर्मध्ये अद्य गुवाहाटी नगरे अध्यात्मकं द्वन्द्वं भविष्यति। इदानीं वार्ताः विशदीकृत्य। अद्य लोकसभा निर्वाचनस्य पंचमचरणाय षष्ठचरणाय सप्तमचरणाय च राजनीतिकदलैः नैर्वाचनिक प्रचाराभियानं विधीयते। केन्द्रीय गृहमन्त्री भाजपादलीयः च वरिष्ठ नेता अमितशाहः सबदलं प्रत्यपादयत् यत् भारतीय जनता पार्टीति दलं पाकाधिकृत जम्मू कश्मीरस्य प्रत्यावर्तनाय प्रतिबद्धं वर्तते। पश्चिम बंगालस्य हुगली स्थले एकां जनसभां संबोधयन् श्री शाहः अकथयत् यत् पाकाधिकृतस्य जनाः पाकिस्तान देशात् स्वतंत्रतायै प्रदर्शनानि अभ्यर्थनानि च कुर्वन्तः सन्ति। जम्मू कश्मीरस्य पर्यटन क्रियाकलाप संवर्धन विषये अपि गृहमन्त्री प्रावोचत् यत् 2 कोटिः पर्यटकाः जम्मू कश्मीरं प्रत्यागताः, येन कीर्तिमानमपि निर्मितम्। 70+300 अनुच्छेदस्य निरसन प्रकरणे श्रीशाहः प्रावोचत् यत् ममतादीदी कांग्रेस इत्यादीनि उक्तवन्तः आसन् यत् अयम् अनुच्छेदः यथावदेव स्थापनीयः। तथैव ओडिशा नगरे लोकसभा विधानसभा निर्वाचने अभिलक्ष्य प्रचाराभियानं तीव्रतां प्राप्नोति। केन्द्रीय गृहमन्त्री अमितशाहः कांग्रेसस्य वरिष्ठो नेता राहुल गांधी अद्य एतस्मिन् राज्ये निज प्रत्याशिभ्यः प्रचाराय जनसभाभ्यः पथ प्रदर्शनेभ्यश्च उत्साहिते स्तः। राजस्थानस्य नीमका थाना इत्यस्मिन् जनपदे एकस्मिन् आकरे गतरात्रौ अवरुद्धाः सर्वे 15 हिन्दुस्तान कॉपर लिमिटेड इत्याख्यस्य अधिकारिणः अद्य निष्कासिताः, येषु एकस्य मृत्योः आशंका वर्तते। नीमका थाना इत्यस्य अधिकारी शरद मेहरा प्रावोचत् यत् निष्कासितानां 14 जनानां उपचारः जयपुरस्य एसएमएस चिकित्सालये प्रचलति, अपरतः एको जनः स्वास्थ्य परीक्षणाय गतः। यतोहि तस्य मृत्योः आशंका अस्ति, एते 15 जनाः तदा अवरुद्धाः जाताः यदा आकरे कार्याय रज्जुमार्गारूढा आसन्। तस्मिन्नेव समये भग्न रज्जुमार्गात् ते अधः पतिताः अथ विलुप्ताः आसन्। चिकित्सकीय दलैः प्रचालितस्य अभियानस्य कारणेन एते कर्मिणः बहिरागताः। विदेशमंत्री एस जयशंकरः प्रोदीरितवान् यत् चाबहार जलपोतस्थानकात् सर्वाणि क्षेत्राणि लाभान्वितानि भविष्यन्ति, एतदभिलक्ष्य मनसि संकीर्ण मानसिकता न भवितव्या। ह्यः रात्रौ कोलकाता नगरे कार्यक्रममेकं सम्बोधयन् भूतकाले अमेरिका देशः अपि अस्य तथ्यस्य प्रशंसा कृतवान् यत् चाबहार जलपोतस्थानकस्य व्यापकी प्रासंगिकता दरीदृश्यते। अवधेयं वर्तते यत् गत सोमवासरे चाबहार जलपोतस्थानकस्य संरचित ईरानदेशीय जलपोतस्थानकस्य संचालनाय 10 वर्षेभ्यः एकस्मिन् अनुबन्धपत्रे हस्ताक्षरः जातः, यः नवदिल्ल्यै मध्य एशियया सह व्यापारिक विस्ताराय सहाय्यं करिष्यति। संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव कार्यक्रमोऽयम् आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ च newsonair इति चलदूरभाषीयतन्त्रांशे अपि उपलब्धो भविष्यति। उत्तरप्रदेशे लखनऊ नगरे अद्य इण्डी संयुत्याः एकं संयुक्त सम्मेलनं समनुष्ठितम्। कांग्रेस दलाध्यक्षः मल्लिकार्जुन खड़गेः, समाजवादी पार्टीति दलप्रमुखः अखिलेश यादवः, अन्ये च सम्बद्ध दलीय नेतारः अत्रावसरे उपस्थिताः आसन्। कांग्रेस दलाध्यक्षेण सम्मुलिखितं यत् चतुर्विंशत्यधिक द्विसहस्रतम वर्षस्य सामान्य निर्वाचनम् लोकतंत्र संविधानयोः संरक्षणाय महत्वपूर्णं वर्तते। श्री खरगेः समुदीरितवान् यत् शिक्षिताः युवानः वृत्त्याभावे सन्ति। समाजवादी पार्टीति दलप्रमुखेण अखिलेश यादवेनापि निगदितं यत् अस्य इण्डी संयुति दलस्य स्पष्टं लक्ष्यं वर्तते यत् यदा सत्तारूढं भविष्यति तदा सर्वाणि सर्वकारीय रिक्तपदानि पूरितानि भविष्यन्ति, अपि च शिक्षितयुवानः वृत्त्यवसराः प्राप्स्यन्ति। भारतेन गाजानगरे संयुक्तराष्ट्रसंघस्य सुरक्षाविभागस्य सुरक्षासमन्वय अधिकारी कर्नल वैभव अनिलकाले इत्यस्य निधने दुःखं प्रकटितम्। विदेशमन्त्रालयः अवदत् यत् संयुक्तराष्ट्रे भारतस्य स्थायि अभियानं तलवीव रामल्ला चित्यादयोः क्षेत्रयोः भारतीयाभियानं च तस्य दिवंगत शरीरस्य स्वदेशं प्रत्यागमनाय सर्वविध सहायतां कुर्वन्ति। मृतान्वेषणस्य विषये सम्बद्धैः अधिकारिभिः सह नैरन्तर्येण सम्पर्कं कुर्वन् अस्ति। अवधेयं वर्तते यत् वैभव अनिलकाले इत्यस्य निधनं सोमवासरे गजानगरे अभवत्। सिंगापुरदेशस्य उपनेता लॉरेंस वोंगः अद्य देशस्य चतुर्थ प्रधानमंत्री पदाय शपथवचनं स्वीकरिष्यति। एकपञ्चाशत् वर्षीयः अर्थशास्त्री श्री वोंगः द्विसप्तति वर्षीयस्य ली सीन लुंगा इत्येतस्य स्थानं गृहीष्यति। यः विंशति वर्षाणि यावत् प्रधानमंत्री पदारूढा आसीत्। भारतीय वायुसेनया आगरानगरे अत्याधुनिक स्वदैशिक सुवाह्य चिकित्सालयस्य भीष्म क्यूब इत्याख्यस्य वैमानिकीय परीक्षणं कृतम्। केन्द्रीय स्वास्थ्य मन्त्री मनसुख माण्डवीयः अवदत् यत् नवोन्मेषी एषा प्रौद्योगिकी कस्यामपि आपातकालिक स्थितौ चिकित्सकीय सहायताम् उपलब्धयितुं महत्वपूर्णः उपक्रमो वर्तते। तानि क्यूब इत्याख्यानि जलरोधकानि धृणानि अल्पभारयुतानि च सन्ति। अवधेयास्पदं वर्तते यत् क्यूब इत्याख्या भीष्म योजना सहयोग हित मैत्रीकरणाय स्वास्थ्य भारत उपक्रम नामकस्य पदक्रमस्य अभिन्नांगत्वेन ज्ञायते। भारतीय ऋतु विज्ञान विभागेन अस्य मासस्य अष्टादश दिनांक पर्यन्तं राजस्थान उत्तरप्रदेश पंजाब हरियाणा राज्यानि समेत्य श्वः आरभ्य उत्तर पश्चिम भारतस्य उपरि अधिकतापस्य पूर्वानुमानं कृतम् अस्ति। अनेनोक्तं यत् अद्य तटीय महाराष्ट्रे गोवायां श्वः च गुजरात राज्ये उष्ण आर्द्र वायुः प्रचलिष्यति। अद्य महाराष्ट्र मध्यप्रदेश छत्तीसगढ़ ओडिशा गुजरात प्रदेशेषु च वज्रपातेन विद्युद्ध्वनिना तीव्रवायुना च सहैव लघुतः मध्यम वृष्टिः अपि भविष्यति इति ऋतुविभागेन पूर्वानुमानं कृतम् अस्ति। आईपीएल इत्येतस्यां क्रिकेट प्रतिस्पर्धायां राजस्थान रॉयल्स पंजाब किंग्स दलयोर्मध्ये अद्य गुवाहाटी नगरे अध्यात्मकं द्वन्द्वं भविष्यति। स्पर्धायाः प्रसारणं सार्धसप्तवादनतो समारप्स्यते। सम्प्रति राजस्थानदलं षोडशाङ्कान् गृहीत्वा द्वितीय स्थाने अस्ति। ह्यः नवदिल्ल्याः अरुणजेटली क्रीडाङ्गणे डेल्ही कैपिटल्स दलं लखनऊ सुपर जायंट्स दलं 19 धावनांकैः पराजितवत् इति वार्ताः।